श्री गणेशाय नमः। ॐ भद्रं कर्णेभिः शृणुयाम देवाः, भद्रं पश्येमाक्षभिर्जत्राः, स्थिरैरङ्गैस्तुष्टुवां सहस्तनुभिः, व्यशेम देवहितं यदायुः। ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः, स्वस्ति नः पूषा विश्ववेदाः, स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः, स्वस्ति नो बृहस्पतिर्दधातु। ॐ शान्तिः, ॐ शान्तिः, शान्तिः, शान्तिः। ॐ नमस्ते गणपतये। त्वमेव प्रत्यक्षं तत्त्वमसि, त्वमेव केवलं कर्तासि, त्वमेव केवलं धर्तासि, त्वमेव केवलं हर्तासि, त्वमेव सर्वं खल्विदं ब्रह्मासि, त्वं साक्षादत्मासि नित्यं। ऋतं वच्मि, सत्यं वच्मि, अवत्वं माम्, अववक्तारम्, अवश्रोतारम्, अवदातारम्, अवधातारम्, अवानुचानमविश्यम्, अवपश्चातात्, अवपुरस्तात्, अवोत्तरातात्, अवदक्षिणात्तात्, अवचोर्ध्वातात्, अवाधरात्तात्, सर्वतो मां पाहि पाहि समन्तात्। त्वं वाङ्मयश्च त्वं चिन्मय, त्वं वाङ्मयश्च त्वं ब्रह्ममयः, त्वं सच्चिदानन्दाद्वितीयोऽसि, त्वं प्रत्यक्षं ब्रह्मासि, त्वं ज्ञानमयो विज्ञानमयोऽसि। सर्वजगदिदं त्वत्तो जायते, सर्वजगदिदं त्वत्तस्तिष्ठति, सर्वजगदिदं त्वयि लयमेष्यति, सर्वजगदिदं त्वयि प्रत्येति। त्वं भूमिरापो न लोवनीलो नभः, त्वं चत्वारि वाक्पदानि, त्वं गुणयत्रयातीतः, त्वं वस्थात्रयातीतः, त्वं देहत्रयातीतः, त्वं कालत्रयातीतः, त्वं मूलाधारस्थितोऽसि नित्यं, त्वं शक्तित्रयात्मकः, त्वां योगिनो ध्यायन्ति नित्यम्। त्वं ब्रह्मा, त्वं विष्णुस्त्वं रुद्रस्त्वं इन्द्रस्त्वं अग्निस्त्वं वायुस्त्वं सूर्यस्त्वं चन्द्रमास्त्वं ब्रह्मभूर्भुवः स्वरो। गणादिं पूर्वमुच्चार्य वर्णादिं तदनन्तरम्, अनुस्वारः परतरः अर्धेन्दुलसितं तारेण रिद्धम्, एतत्तव मनुस्वरूपम्। गकारः पूर्वरूपम्, अकारो मध्यरूपम्, अनुस्वारश्चान्तिरूपम्, बिन्दुरुत्तररूपम्, नादः सन्धानं, संहिता सन्धिः, सैषा गणेशविद्या, गणकऋषिः, नीचृदायत्री छन्दः, गणपतिदेवता। ॐ गङ्गणपतये नमः। एकदन्ताय विद्महे वक्रतुण्डाय धीमहि, तन्नो दन्ती प्रचोदयात्। एकदन्तचतुर्हस्तं पारामङ्कुशधारिणं, रदं च वरदं च हस्तैर्विभ्राणं मूषकध्वजं, रक्तं लम्बोदरं शूर्पकर्णकं रक्तवाससं, रक्तगन्धानुलिप्ताङ्ग रक्तपुष्पैसुपूजितं, भक्तानुकम्पिनदेवं जगत्कारणं च्युतम्। अविर्भूतं च सृष्ट्यादौ प्रकृतैः पुरुषात्परम्, एवं ध्यायति यो नित्यं स योगी योगिनां वरः। नमो व्रातपतये, नमो गणपतये, नमः प्रथमपत्तये। नमस्ते अस्तु लम्बोदारायैकदन्ताय, विघ्ननाशिने शिवसुताय श्रीवरदमूर्तये नमो नमः। एतदथर्वशीर्षयो अधीते सः ब्रह्म भूयाय कल्पते स सर्वविघ्नैर्न बाध्यते स सर्वतः सुखमेधते। सायं धियानो दिवसकृतं पापं नाशयति प्रातर्धियानो रात्रिकृतं पापं नाशयति। सायं प्रातः प्रयुञ्जानो पापोद्भवति सर्वत्र धियानो अपविघ्नो भवति धर्मार्थ काम मोक्षं च विन्दति। इदमथर्वशीर्षं शिष्यायन देयम् यो यदि मोहाद् दास्यति स पापीयान् भवति। सहस्रावर्तनात् यं यं कामं धीते तं तमनेन साधये अनेन गणपतिं भिषिञ्चति स वाग्मी भवति। चतुर्थ्यां मनश्रन्न जापति स विद्यावान् भवति। इत्यर्थवर्णवाक्यं ब्रह्माद्यार्वरणं विद्यात् न विभेति कदाचनेति। यो दूर्वां कूरैर्यजति यो दूर्वां कूरैर्यजति स वैष्णवणोपमो भवति। यो लाजैर्यजति स यशोवान् भवति सह मेधावान् भवति। यो मोदकसहस्रेण यजति स वाञ्छितफलं वाप्नोति। यः साज्य समिभदर्भ यजति स सर्वं लभते। अष्टो ब्राह्मणानां सम्यग्राहयित्वा सूर्यवर्चस्वी भवति। सूर्यगृहे महानद्यां प्रतिभासन्निधो वा जापत्वा सिद्ध मन्त्रोन्भवति। महाविघ्नात् प्रमुच्यते महादोषात् प्रमुच्यते महापापात् प्रमुच्यते। स सर्वविद्भवति य एवं वेद इत्योपनिषत् अर्थर्ववैदीय गणपत्युनिषदं समाप्तः।